इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। निर्वाचनायोगेन जम्मू कश्मीर हरियाणा राज्ययोः च विधानसभा निर्वाचन दिनांकस्य घोषणा कृता। जम्मू कश्मीरे विधानसभा निर्वाचनम् आगामि मासस्य अष्टादश दिनांकादारभ्य त्रिषु चरणेषु भविष्यति। तत्रैव हरियाणायाम् अस्मिन् वर्षे अक्टोबर मासस्य प्रथमे दिनांके एकस्मिन्नेव चरणे निर्वाचनम् भविष्यति। भारतीयान्तरिक्ष अनुसन्धान संगठनेन पृथ्वी निरीक्षण उपग्रह 08 इत्येतत् श्रीहरिकोटातः सफलतापूर्वकं प्रक्षिप्तम्। राष्ट्रं श्वः तृतीयस्य वॉयस ऑफ ग्लोबल साउथ इत्यस्य शिखर सम्मेलनस्य नेतृत्वं करिष्यति। कोलकाता नगरे एकस्य प्रशिक्षु स्नातकोत्तर चिकित्सिकायाः दुष्कर्मस्यानन्तरं हत्यायाः च विरोधे विभिन्न चिकित्सा संघैः निरन्तरं प्रदर्शनस्यानन्तरं अनेकेषु नगरेषु चिकित्सा सेवा प्रभाविता। अपि च भारतीय चिकित्सा संघेन उद्घोषितं यत् श्वः प्रातः 6 वादनतः राष्ट्रव्यापिन्यः आपातकालिकेतर सेवाः बाधिताः भविष्यन्ति। अथ वार्ताः विशदीकृत्य। जम्मू कश्मीरे विधानसभा निर्वाचनम् आगामि मासस्य 18 दिनांकादारभ्य त्रिषु चरणेषु भविष्यति। तत्रैव हरियाणायाम् अस्मिन् वर्षे अक्टोबर मासस्य प्रथमे दिनांके एकस्मिन् चरणे निर्वाचनं भविष्यति। जम्मू कश्मीरस्य हरियाणायाः च मतदानस्य गणना अक्टोबर मासस्य 4 दिनांके भविष्यति। मुख्य निर्वाचनायुक्तः राजीव कुमारः अद्य नवदिल्ल्यां जम्मू कश्मीर हरियाणा राज्ययोः निर्वाचन कार्यक्रमस्य घोषणां कृतवान्। जम्मू कश्मीरे प्रथमचरणस्य मतदानम् आगामि मासस्य 18 दिनांके, द्वितीयचरणस्य मतदानम् 25 दिनांके, तृतीयान्त्यम् चरणस्य च मतदानम् अस्य वर्षस्य अक्टोबर मासस्य प्रथमे दिनांके भविष्यति। श्रीकुमार महोदयेन उक्तं यत् लोकसभा निर्वाचनानन्तरं जम्मू कश्मीरे परिवर्तितः परिदृश्यः अस्ति, लोकतन्त्रस्य स्तराः च सुदृढाः सन्ति। सः अवदत् यत् आयोगः सद्यैव जम्मू कश्मीर हरियाणा राज्ययोः गत्वा निर्वाचन सज्जतायाः अवलोकनं कृतवान्। जनानां मध्ये महान् उत्साहः अपि दृष्टः। भारतस्य नूतनं प्रक्षेपास्त्रं लघु उपग्रह प्रक्षेपणयानं SSLV-D3 अद्य प्रातः 5.75 यावत् किलोग्राम भारग युक्तेन पृथ्वी निरीक्षण उपग्रहेण 08 इत्यनेन सह साफल्येन प्राक्षिपत्। तस्मिन् अपरः लघु उपग्रहः SR-0 आसीत् यत् चेन्नई नगरस्य स्टार्टअप संस्थायाः स्पेस रिक्शो SR-0 इत्यनेन निर्मितम् आसीत्। भारतीय अन्तरिक्ष अनुसन्धान संगठनेन इसरो इत्यनेन लघु उपग्रहाणां कृते विपण्य प्रवृत्तेः आधारेण निम्न पृथ्वी कक्षायां LEO 500 किलोग्राम यावत् वहन क्षमतया सह SSLV विकसितम् अस्ति। प्रायः 17:09 650 कोटि रूप्यकाणां मूल्यव्ययेन 34 मीटर परिमितं यावत् ऊर्ध्वं प्रायः 29.1 टनभारयुतं च व्ययोग्यं प्रक्षेपास्त्रं प्रथम प्रक्षेपणस्थानात् मुक्तः भूत्वा ऊर्ध्वं एकस्मिन्नेव दिशायां यात्राम् आरब्धवान्। पुच्छे स्थूल नारंग ज्वालायुतः प्रक्षेपास्त्रं शनैः शनैः वेगं संगृह्य ऊर्ध्वं च गच्छति स्म। परियोजनायाः उद्देश्यस्य विषये इसरो इत्यनेन उक्तं यत् SSLV विकास परियोजनां सम्पन्नं करिष्यति तथा च भारतीय उद्योगेन तथा सार्वजनिक क्षेत्रस्य न्यू स्पेस इंडिया लिमिटेड इत्यनेन परिचालन योजनां सफलं करिष्यति। राष्ट्रं श्वः तृतीयस्य वॉयस ऑफ ग्लोबल साउथ इत्यस्य शिखर सम्मेलनस्य नेतृत्वं करिष्यति। शिखर सम्मेलनस्यास्य विषयो विद्यते सतत भविष्याय एकं सशक्तं वैश्विक दक्षिणम्। विदेश मन्त्रालयेन विज्ञापितं यत् शिखर सम्मेलनमिदं संघर्ष खाद्योर्जा सुरक्षा संकटानां तथा च व्यतीतेषु शिखर सम्मेलनेषु संजात चर्चाणां विस्तारणाय मञ्चत्वेन कार्यं समाचरिष्यति। जम्मू कश्मीरे आरक्षकदलेन जम्मू प्रान्तस्य 8 जनपदेषु 29 आतंक विरोधि निरीक्षण दलानि संस्थापितानि। अस्माकं संवाददात्रा विज्ञापितं यत् अयं पदक्षेपः जम्मू प्रान्तस्य शान्तिपूर्ण क्षेत्रेषु संवर्धमानानि आतंक प्रकरणानि समालक्ष्य समुत्थापितः। इमानि दलानि नवीनतम संसाधनैः प्रशिक्षणैश्च सुसज्जितानि भविष्यन्ति। अनेन पदक्षेपेण जम्मू क्षेत्रे आतंक गतिविधयः न्यूनाः भविष्यन्ति। एतेषु प्रत्येकस्यापि प्रभागस्य नेतृत्वं कश्चन आरक्षण उपाधीक्षकः विधास्यति। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। कोलकाता नगरे एकस्य प्रशिक्षु स्नातकोत्तर चिकित्सिकायाः दुष्कर्मस्यानन्तरं हत्यायाः च विरोधे विभिन्न चिकित्सा संघैः निरन्तरं प्रदर्शनस्यानन्तरं अनेकेषु नगरेषु चिकित्सा सेवा प्रभाविता। पटनायाम् अद्य पटना चिकित्सा महाविद्यालये चिकित्सालये च नालन्दा चिकित्सा महाविद्यालये इत्येतयोः चिकित्सकाः अनिश्चितकालं यावत् प्रदर्शनं कृतवन्तः। अमृतसरे सर्वकारीय चिकित्सा महाविद्यालये चिकित्सक संघः सर्वासु अत्यावश्यक सेवासु निलम्बनस्य घोषणां कृतवान्। गुरुनानकदेव चिकित्सालये चिकित्सकैः विरोध प्रदर्शनं कृतम्। महाराष्ट्र संघः चिकित्सक संघः राज्ये चिकित्सा प्रशिक्षुणां संघः अपि प्रदर्शने सम्मिलितः। अद्य सायंकाले मुंबई नगरस्य आजाद उद्याने विरोध यात्राया प्रदर्शनस्य आयोजनं करिष्यन्ति इत्यपि संघेनोक्तम्। भारतीय चिकित्सा संघेन उद्घोषितं यत् कोलकाता नगरे संजातस्य दुष्कर्म प्रकरणस्य अनन्तरं जातायाः महिला चिकित्सिकायाः हत्यायाः विरोधे श्वः प्रातः षड्वादनतः राष्ट्रव्यापिन्यः आपत्कालिकेतर सेवाः बाधिताः भविष्यन्ति। अनेन सद्येन एकस्मिन् वक्तव्ये संसूचितं यत् तस्मिन् समये आवश्यक सेवाः पूर्ववत् संचालयिष्यन्ते अपि च बाह्यरोगी विभागः कार्यं नैव करिष्यति। वैकल्पिक शल्य चिकित्सापि न करिष्यते। इयं घोषणा तेषु सर्वेषु क्षेत्रेषु क्रियान्विता भविष्यति यत्रापि आधुनिक चिकित्सा चिकित्सकैः सेवा प्रदीयते। केन्द्रीय स्वास्थ्य मन्त्रालयेन निर्देशः प्रदत्तः यत् संस्था प्रमुखः चिकित्सकानां विरुद्धं हिंसायाः सन्दर्भे अधिकतमं षड्होरासु संस्थागत एफआईआर इति पञ्जीकरणस्य उत्तरदायी भविष्यति। स्वास्थ्य सेवा महानिदेशकः अतुल गोयलः अस्मिन् विषये केन्द्र सर्वकारस्य चिकित्सालयानां चिकित्सा महाविद्यालयानाञ्च प्रमुखाय पत्रं लिखितवान्। कोलकाता नगरे सद्यः एव एकस्याः चिकित्सिकायाः हत्यायाः प्रकरणे आवासी चिकित्सकैः विरोध प्रदर्शनानन्तरं एषः निर्देशो प्रदत्तः। विदेशमन्त्री डॉ एस जयशंकरः अस्य मासस्य अष्टादश दिनांके कुवैत देशस्य आधिकारिक यात्रां करिष्यति। स्वीय यात्रावधौ डॉ जयशंकरः समकक्षेण अब्दुल्ला अली अल याहया इत्यमुना सह मिलिष्यति। डॉ जयशंकरस्य इयं यात्रा राजनैतिक व्यापार निवेश ऊर्जा सुरक्षा सांस्कृतिक क्षेत्रेषु द्विपक्षीय सम्बन्धान् दृढीकरिष्यति। उभावपि पक्षौ परस्पर हितमालक्ष्य क्षेत्रीयान्ताराष्ट्रिय प्रकरणेष्वपि विचाराणाम् आदान प्रदानं करिष्यतः। उपराष्ट्रपतिः जगदीप धनकड़ः अद्य प्रभृति तेलंगाना आन्ध्रप्रदेशयोः द्विदिवसीय यात्रां विधास्यति। स्वीय यात्रायाः प्रथमे दिवसे श्रीधनखड़ः तेलंगानायां काना शान्तिवनम् इत्यस्य यात्रां करिष्यति। यात्रायाः द्वितीये दिवसे उपराष्ट्रपतिः नेल्लोरे अक्षरा महाविद्यालय परिसरस्य एवं कौशल विकास केन्द्रस्य स्वर्ण भारत ट्रस्ट एवं मुप्पावरपु इत्यस्य यात्रां करिष्यति। अनन्तरं सः मध्याह्ने आन्ध्रप्रदेशस्य वेंकटाचलमस्थाने स्वर्ण भारत ट्रस्ट इत्यस्य त्रयोविंशति वर्षपूर्त्यवसरे समारोहे मुख्यातिथित्वेन भागं भजिष्यति। भारत वियतनाम देशाभ्याम् अद्य परस्पर विकासाय वैश्विक कल्याणाय च सामुद्रिक सहभागितां संवर्धितुं चर्चा विहिता। इति वार्ताः।